नमस्सर्वेभ्यः अद्य कृदन्तवर्गे चतुर्दशः पाठः जुलै मासस्य अष्टमः दिनाङ्कः. अद्य वयं तव्यप्रत्ययस्य अध्ययनम् अनुवर्तयामः. त्रिषु लिङ्गेषु कथं रूपाणि भवन्ति, कर्तृपदस्य कर्मपदस्य प्रयोगः कथम्, भिन्नासु विभक्तिषु च प्रयोगः कथं भवति इति पश्यामः. आदौ मङ्गलम्. योऽन्तः प्रविश्य ममवाचमिमाम् प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना, अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम्. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमम् शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. अद्य गुरुपूर्णिमा अस्ति, अतः अस्मिन् सन्दर्भे विशिष्य अस्मद्गुरून् स्मृत्वा अग्रे सरामः. तव्यप्रत्ययः अधीयमानः अस्ति कृत् प्रत्ययेषु. अयं कर्मवाचकः प्रत्ययः, विध्यर्थकः उभयं स्मर्तव्यम्. कर्म बोधयति, तेन सह विद्यादीन् अर्थान् अपि बोधयति प्रत्ययः. तव्यप्रत्ययस्य सामान्यनियमः अयम् यत् रूपाणि तुमुन्नन्तरूपैः तुल्यानि भवन्ति, तर्हि के प्रधानकार्याणि इति चेत् इडागमः भवितुमर्हति. सेट् धातूनाम् इडागमः भवति, वेट् धातूनां विकल्पेन इडागमः भवति. गुणः यत्र यत्र सम्भवः, इगन्तानाम् अङ्गानां गुणः भवति, लघु इगुपधानाम् अङ्गानामपि गुणः भवति. अनिट् धातूनां विषये हल् सन्धिः, धातोः अन्ते विद्यमानस्य हलः तुमुनः अथवा तव्यप्रत्ययस्य तकारेण सह सन्धिः अपि भवति. तत्र सेट् धातूनां तव्यान्तरूपाणि कथं भवन्ति, इगन्तानां गुणः अयादेशः, इकारस्य अयादेशः, इकारस्य एकारः तस्य अयादेशः, उकारस्य ओकारः तस्य अवादेशः, ऋकारस्य अर् इत्येवं. श्री श्रयितव्यम्, डी डयितव्यम्, नु नवितव्यम्, भू भवितव्यम्, जागृ जागरितव्यम् इत्येतानि रूपाणि भवन्ति. लघु इगुपधानाम् उपधायाम् इकारः उकारः ऋकारो वा लघुवर्णः अस्ति चेदपि गुणः भवति. इकारस्य एकारः लिख लेखितव्यम्, उकारस्य ओकारः मुद् मोदितव्यम्, ऋकारस्य अर् नृत् नर्तितव्यम् इति. ऋकारान्तानाम् इडागमः भवति, तस्य विकल्पेन दीर्घश्च भवति. कृ इत्यस्ति गुणे, इडागमे करितव्यम् इति भवति, दीर्घे करीतव्यम्. एवं तृ तरितव्यम् तरीतव्यम् इति. वृ धातोरपि अयं दीर्घः भवति विकल्पेन, वृ इत्यस्य वरितव्यम् वरीतव्यम् इति रूपद्वयम्. ग्रहधातुः अस्ति, तस्य नित्यं दीर्घः भवति इटः, अतः ग्रहीतव्यम् इति एकमेव रूपम्. निजन्तानां धातूनां प्रयोगे सर्वे निजन्ताः सेटः भवन्ति, तिङन्तसदृशाणि रूपाणि भवन्ति. चोरयितव्यम्, कथयितव्यम्, स्पृहयितव्यम्, प्रार्थयितव्यम्, तोलयितव्यम् इत्यादि. अनिट् धातूनां तव्यान्तरूपाणि कथं भवन्ति, एजन्तानाम् आकारादेशः भवति. गै गा गातव्यं गातव्यम्, एवं ह्वे वातव्यम् इति. इगन्तानां गुणः भवति, ஜேத்தவ்யம், நேத்தவ்யம், ஸ்ரோதவ்யம், கர்த்தவ்யம் இத்தியாதி. புனஹ லகு இகுபதானாமபி குணஹ க்ஷிப் க்ஷேப்தவ்யம், துஷ் தோஷ்டவ்யம் இத்தியாதி. ஹலந்தானாம் சந்திஹி பின்னாஹ சந்தயஹ பவிதும் அர்ஹந்தி, அது அத்தவ்யம் சத்வ சந்திஹி. பச்சு பக்தவ்யம், தத்ர சவர்கஸ்ய குத்வம் பவதி. கம் கந்தவ்யம், அனுஸ்வாரஹ பரசவர்ணஹ கந்தவ்யம். லப் லப்தவ்யம், தத்ர துமுனஹ க்ஷம்யதாம், தவ்ய பிரத்யயஸ்ய தகாரஸ்ய தகாராதேஷஹ பவதி. பகாரஸ்ய பூர்வம் வித்யமானஸ்ய மஹாப்ராணஸ்ய பகாரஸ்ய ஜஷ்வம் பவதி லப்தவ்யம் இதி. கேஷாஞ்சன தாதுனாம் விசிஷ்டானி காரியாணி அப்படி பவந்தி, யதா ரிகாரஹ உபதாயாம் அஸ்தி சேத் ரேப ர இதி ஆதேசஹ பவதி. த்ருஷ் த்ரஷ்டவ்யம், ஸ்பிருஷ் ஸ்பிரஷ்டவ்யம் இத்தியாதி. ஹகாராந்தானாம் டகாரஹ பவதி, வஹ வோடவ்யம், ருஹ ரோடவ்யம் இத்தியாதி. தஹ தாதோஹ தக்தவ்யம் ஏவம் துஹ தாதோஹ தோக்தவ்யம் இதி ரூபம். ப்ரச் தாதோஹ ப்ரஷ்டவ்யம் ஏவம் ஸ்ருஜ் இத்யஸ்ய ஸ்ரஷ்டவ்யம். யஜ் யஷ்டவ்யம் இத்யாதீனி ரூபாணி பவந்தி. ஓகே, சோ ரிமைண்டர், ப்ளீஸ் ஃபில் இன் த எக்ஸெல் ஷீட் விச் ஹாஸ் த ஃபார்ம்ஸ். சோ ஈவன் த துமுன் இஸ் ஒன்லி ஹாஃப் ஃபில்ட் ஐ கெஸ். So I went through the forms which have already been filled and they have been corrected. For the remaining, please do fill in. You can do both Tumun and Tavya together because both are, there is no difference except writing Tum or Tavyam. And it will be definitely useful. You know, that drill of getting to the forms. It's very easy when you want to actually use them because of the samskara. Once you are familiar with the forms, it becomes much more easier to use it whenever required in the sentences. Okay, so please do fill the Excel sheet and let us have it complete for Tavya, both Tumun and Tavya, by next week. Okay. Agre gachamaha. துமுன் பிரத்யாந்தசப்தாஹ அவ்யயானி பவந்தி, அதஹ ஏகமேவ ரூபம். கிந்து தவ்ய பிரத்யாந்தஸ்ய லிங்கத்ரயே அபி ரூபாணி பவந்தி இதி விசேஷஹ. படிதவ்யஹ படிதவ்யா படிதவ்யம், கந்தவ்யஹ கந்தவ்யா கந்தவ்யம், க்ரேதவ்யஹ க்ரேதவ்யா க்ரேதவ்யம், ஸ்மர்த்தவ்யஹ ஸ்மர்த்தவ்யா ஸ்மர்த்தவ்யம் இதி. அகாராந்த புல்லிங்க, ஆகாராந்த ஸ்திரீலிங்க, அகாராந்த நபும்சகலிங்கஷ்ட பவதி ஷப்தஹ. கிஞ்ச கர்மபதஸ்ய லிங்கம் அனுசரதி தவ்ய பிரத்யாந்தஸ்ய லிங்கம், கஸ்மின் லிங்கே பிரயோகம் கர்த்தவ்யஹ, யஸ்மின் லிங்கே கர்மபதம் அஸ்தி தல்லிங்கே பிரயோகம் கர்த்தவ்யஹ. க்ரந்தஹ படிதவ்யஹ, கீதா படிதவ்யா, புராணம் படிதவ்யம். க்ரந்தஹ இதி பும்சி, அதஹ படிதவ்யஹ. கீதா படிதவ்யா, புராணம் படிதவ்யம். ஏவம் க்ராமஹ கந்தவ்யஹ, பாடசாலா கந்தவ்யா, க்ருஹம் கந்தவ்யம். ஸ்யூதஹ க்ரேதவ்யஹ, லேகனீ க்ரேதவ்யா, புஸ்தகம் க்ரேதவ்யம். அத்ர புராணம் க்ருஹம் புஸ்தகம் இதி சர்வம் பிரதமா விபக்தௌ ஏவ ரூபம், நது த்விதீயா விபக்தௌ. அனுபவஹ ஸ்மர்த்தவ்யஹ, வார்த்தா ஸ்மர்த்தவ்யா, மித்ரம் ஸ்மர்த்தவ்யம் இதி. சர்வதாபி கர்மபதஸ்ய லிங்கம் அனுஸ்ருத்ய பிரயோகஹ பவதி. யதா மயா உக்தம், அத்ய யே யே அம்சாஹ உச்யந்தே தே சர்வேபி அம்சாஹ அனியர் பிரத்யயஸ்ய அத்யயனே உக்தாஹ ஏவ. சோ எவ்ரிதிங் தட் வி ஆர் டிஸ்கஸிங் டுடே ஆர் வாட் வி ஹவ் ஆல்ரெடி சீன் இன் அனியர் அண்ட் தேர் இஸ் நோ டிஃபரன்ஸ், இட் இஸ் எக்ஸாக்ட்லி த சேம். ஹவ் வேர் எவர் வி யூஸ் அனியர் ஆர் இன் விச் எவர் ஃபார்ம், இட் வில் ஹாவ் த சேம் திங் ஃபார் தவ்ய ஆல்சோ. Okay, so we can remember that this, I mean, and apply it for both Tavya and Aniyar. Abhyasaha Samuchita Linge Tavya Pratyayantasya Upayogam Kuruta. Antra Drashtavya Ityasti. So, Kena Kena Padena Katham Prayogaha Bhavati Iti Vaktavyam. Vaktum Ichanti Kapaya Hastan Uttolayantu. Nandakumar Mahalaya.
Namaste.
Drashtavya.
Ayodhya Drashtavya. Kachi Drashtavya. Prayagaha Drashtavyaha. Pataliputram Drashtavyam. Vijayanagaram Drashtavyam. Somanathaha Drashtavyaha.
Samyak. Swaminathan Mahalaya.
Pita Mantavya.
Pita
Mantavya.
Mata
Mantavya.
Bhagavan
Mantavyam.
Bhagavan Pulinge.
Bhagavan Mantavya. Guruhu Mantavya. Dharmaha Mantavya. Satyam Mantavyam. Vedaha Mantavya. Adi Mantavya.
Samyak. So, Pita Nantavyaha, Mata Nantavya, Bhagavan Nantavyaha, Guruhu Dharmaha Nantavyaha, Satyam Nantavyam, Vedaha Nantavyaha, Nadi Nantavya. Rav Mohane.
Yeah. Hari Om. Shruyatava?
Shruyat.
Pranaha Rakshitavyaha. Smittih rakshitavya, putrah rakshitavya, putri rakshitavya, mitram rakshitavyam, bharya rakshitavya, vittam rakshitavyam, bandhuhu rakshitavya.
Bandhuhu rakshitavya. Samyak.
Thank you.
Srinivas Mahodaya. Nashruyate.
Abharanam Choraitavyam. Ashwaha Choraitavyaha. Vigraha Choraitavyaha. Duravani Choraitavya. Panam Yanam Choraitavyam. Padaraksha Choraitavya.
Venkatraman Ayyar Mahodaya.
Surmala Mahodaya.
Vastram
Dartavyam. Urukam Dartavyam. Kati Pattaha Dartavyaha. Yutagam Dartavyam. Nicholaha Dartavyaha. Shatika Dartavyam.
Shatika?
Shatika Dartavya. Kankanam Dartavya.
Samyak. Evam Lingam Anusritya. Karma Padasya Lingam Anusritya. Prayogaha Bhavati. Karmani Prayogaha Eva. कर्मवाचकः प्रत्ययः अतः तव्यप्रत्ययान्तं प्रयुञ्ज्महे चेत् सः कर्मणि प्रयोगः एव भवितुमर्हति. अत एव कर्मपदम् अनुसृत्य लिङ्गं वचनं विभक्तिः सर्वमपि तथैव सर्वासु विभक्तिषु प्रयोगः शक्यते. सर्वेषु वचनेष्वपि प्रयोगः शक्यते. सर्वत्र कर्मपदम् अनुसरति इत्येव नियमः. अन्यः एकः प्रश्नः अस्ति, प्राणशब्दः नित्यं बहुवचनान्तः किल इति. सत्यं, यदा वदामः प्रायेण प्राणाः इति एज़् इन् लैफ् इत्यर्थे प्राणाः इत्येव प्रयोगः. प्राणः अपानः इत्यादिषु पृथक्तया निर्देशे एकवचनस्यापि प्रयोगः भवितुमर्हति, उदाहरणमात्रार्थमिदम्. किन्तु प्राणाः लैफ् इत्यर्थे यदा प्राणशब्दस्य प्रयोगः क्रियते तदा बहुवचनान्तत्वेनैव क्रियते. पृथक् ये पञ्चप्राणाः सन्ति, प्राणः अपानः उदानः समानः व्यानः, तेषां प्रयोगे प्रत्येकम् एकवचनस्य प्रयोगः भवति. अत्र उदाहरणं वस्तुतः एतदेव पूर्वं वक्तव्यमासीत्. ब्राह्मणावसताश्चैव कर्तव्याः शतशः शुभाः. रामायणे वस्तुतः आदवेव अस्ति, यत्र दशरथः अश्वमेधयागार्थं सिद्धतां करोति तत्र अमात्यान् निर्दिशति किं किं कर्तव्यं यागस्य सन्दर्भे इति. तत्र लिङ्गत्रयस्य प्रयोगः कथं भवति इति दृश्यते. ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः. आवसथः, आवसतः नाम निलयः, तेषां वस्तुं स्थलम्. आवसथाः कर्तव्याः, आवसथः इति पुल्लिङ्गे, अतः कर्तव्यः इत्यपि पुल्लिङ्गे. शतशः ब्राह्मणावसथाः शुभाः कर्तव्याः. दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया. अन्नं दातव्यम्, सो आवसथः कर्तव्यः अन्नं दातव्यम्. अन्नम् इति नपुंसके, अतः दातव्यम् इत्यपि नपुंसके. दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया. अन्नं दातव्यम् अर्थात् अन्नदानं करणीयम्. कथं सत्कृत्य न तु लीलया, यदा अन्नं दीयते तदा सत्कारपूर्वकं गौरवपूर्वकम् अन्नदानं कर्तव्यम्. अस्माभिः अन्नं दीयते, भवन्तः भुक्त्वा गच्छन्तु इति तिरस्कारेण लीलया, लीला इत्युक्ते विथौट् सीरियस्नेस्, एवमेव कर्तव्यं कथञ्चित् इति भावेन न कर्तव्यम्, श्रद्धया सत्कारपूर्वकम् अन्नं दातव्यम्, न तु लीलया. न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि. अवज्ञा प्रयोक्तव्या अथवा न प्रयोक्तव्या. अवज्ञा नाम तिरस्कारः. कामक्रोधवशादपि, कामेन वा क्रोधेन वा अवज्ञा कस्यापि अतिथेः विषये तिरस्कारः न दर्शनीयः. अतः आवसथाः कर्तव्याः, अन्नं दातव्यम्, अवज्ञा न प्रयोक्तव्या इति लिङ्गानुसारेण, कर्मपदस्य लिङ्गानुसारेण तव्यप्रत्ययान्तस्य प्रयोगः. कानिचन सुभाषितानि अपि सन्ति. विलम्बो नैव कर्तव्यः, आयुर्याति दिने दिने, न करोति यमः क्षान्तिम्, धर्मस्य त्वरिता गतिः. विलम्बः नैव कर्तव्यः, वन् शुड् नाट् डिले. यत्कार्यं श्वः कार्यम् अद्य कुर्वीत. सो श्वः यत् कर्तव्यम् अस्ति तदद्यैव कर्तव्यम् इत्यर्थे. विलम्बः न कर्तव्यः. किमर्थम्? आयुः याति दिने दिने, आयुर्नश्यति पश्यतां प्रतिदिनं, यातिक्षयं यौवनम् इत्यादि. सो प्रतिदिनम् आयुः नश्यति. न करोति यमः क्षान्तिम्, यदा कालः समागच्छति तदा यमः न सहते, इत्युक्ते अस्तु मया इतोपि कार्याणि करणीयानि सन्ति, कानिचन दिनानि, सहस्व इत्युक्ते यमः न सहते यस्मिन् काले मृत्युः इति निश्चितं तत्काले भवत्येव. धर्मस्य त्वरिता गतिः, वेगेन कर्तव्यं. धर्मस्य तस्य गतिः त्वरिता वर्तते, अतः विलम्बः न कर्तव्यः. विलम्बः इति पुल्लिङ्गे, अतः कर्तव्यः इत्यपि पुल्लिङ्गे. अतितृष्णा न कर्तव्या, तृष्णां नैव परित्यजेत्. अतितृष्णा न कर्तव्या, तृष्णा नाम आशा इत्यर्थे. दुराशा न भवेत्, किन्तु तृष्णां नैव परित्यजेत्. सम्पूर्णतः आशायाः परित्यागः अपि न कर्तव्यः. शनैश्शनैश्च भोक्तव्यं स्वयं वित्तम् उपार्जितम्. सो स्वयम् उपार्जितं वित्तम् पुरुषः स्वश्रमेण स्वप्रयत्नेन यद्धनम् अर्जयति, तद्धनं शनैश्शनैः उपभुञ्जीत. शनैश्शनैः तस्य उपयोगेन तृष्णायाः, तृष्णां नैव परित्यजेत्, तस्य सिद्धिः कथं भवति? स्वयमुपार्जितेन वित्तेन शनैश्शनैः कर्तव्यम् इति सुभाषितम्. सो अतितृष्णा न कर्तव्या. अतितृष्णा इति स्त्रीलिङ्गे, अतः कर्तव्या इत्यपि स्त्रीलिङ्गे प्रयोगः. कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि, अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि. प्राणाः गच्छन्ति इति दशा अस्ति चेदपि कर्तव्यमेव कर्तव्यम्. सो दट् विच् शुड् बी डन् हेस् टु बी डन्. That which must not be done, should not be done. So, kartavya akartavya yoho vivekaha bhavet. Sarvada kenapi karanena akartavyam nakartavyam kartavyam natyaktavyam ubhayathapi. So, kartavyam eva kartavyam akartavyam nakartavyam. So, as you can see here, there is no other karma pada. Okay. So, the kartavya itself, kim kartavyam? Yat kartavyam tat kartavyam, anything that which must be done ityeva. So there is no other karma pada. So in such cases we use napumsakalinga only. So kartavya kartavya kartavyam iti prayogaha karma padam anusritya bhavati. Etadapi smartavyam samanyataha vakye yada prayogaha tada karma padam prathama vibhaktau bhavati. कर्मणि प्रयोगः अयम्, अतः कर्मपदं प्रथमाविभक्तौ भवति. अनियर् अपि प्रथमाविभक्तौ, अथवा तव्यप्रत्ययान्तशब्दः अपि प्रथमान्तः एव भवति. यथा देवं नमामि इति तिङन्तप्रयोगः, देवः नन्तव्यः. सो द लार्ड् मस्ट् बी बोर्ड् डौन् टु आर् वर्शिप्. देवं नन्तव्यम् इति असाधुप्रयोगः. सो अस्माकं संस्कारवशात् किं भवति? सर्वदा कर्मपदं यत्र भवति तत्र द्वितीया विभक्तिः आदौ भवति, देवम् इति. अनन्तरं तदनुगुणं नन्तव्यम् इत्यपि कुर्मः. सः असाधुः प्रयोगः. एवं कथां लिखसि, कथा लेखितव्या इति प्रथमा विभक्तौ एव. कथां लेखितव्यम् इति अशुद्धम्. परोपकारं करोति, परोपकारः कर्तव्यः, न तु परोपकारं कर्तव्यम् इति. अतः सर्वदापि अयं कर्मणि प्रयोगः, कर्मपदं प्रथमा विभक्तौ भवति. सो अत्र तव्यप्रत्ययान्तम् उपयुज्य वाक्यं रचयत. वाक्यानि लोट्लकारे भवन्ति, तस्य तव्यप्रत्ययान्तम् उपयुज्य विधिलिङ् कर्मणि प्रयोगः कर्तव्यः. सो एतत् स्मर्तव्यं, यदि तव्य अनियर् इत्यादीनां प्रयोगः सर्वदा कर्मणि प्रयोगः एव भवति. यदि कर्तरि तस्यैव अर्थस्य बोधः भवेत् तर्हि तिङन्तस्यैव उपयोगः कर्तव्यः. यथा लोट्लकारः अथवा विधिलिङ्गकारः. So there are no krit pratyas which can convey the sense of vidhi in kartari prayoga. Okay. So kartari prayoga vidhyarthakaha prayogaha iti chet lakarasya, lot lakarasya, vidhiling lakarasya va prayogaha kartavyaha. Athava karmani prayoga we have easier ways in tavya and aniyas. Satyam vada ityasti tasya tavya pratyayantena prayogaha kartavyaha. Harmandar Singh.
Namo nama. Satyam vada. Satyam vadayit. Vadayit. Vaditavyam.
Samyak. Satyam vaditavyam. Shamyata maya vaktavyam iti puttam. Kintu vada ityasya vaditavyam itteva. Satyam vaditavyam. I will change this. It is samskara.
Dharmam chara. Dharmaha charitavyam.
Dharmaha
charitavyaha. Sorry.
Charitavyaha. Dharmaha charitavyaha.
Svadhyayam anuvartaya. Svadhyayah anuvartaya ya. Anuvartaya.
Anuvartayi tavyaha. Vartayati is vartayitavya. So, anu.
Vartayitavya.
Svadhyayaha anuvartayitavyaha. Continue ityarthaha. Anuvartayati ityasya. So, this is a nijanta. Ataha vartayitavyaha. Okay. Svadhyayaha. So, svadhyaya must be continued. Jyotsna Nani. Jyotsna Bhagini.
Mata Pujitavya.
Pujayitavya.
Pujayitavya. Pujayitavya. Atitihi Satkartavya.
Atitihi
Satkartavya.
Pullinge Atithi Shabda.
Pullinge Satkartavya.
Atitihi Satkartavya.
Durasha Tyaktavya.
Durasha Tyaktavya. Mata Pujayitavya. Atitihi Satkartavya. Durasha Tyaktavya. Atitihi Satkartavya. Satkara is to treat well, to be hospitable towards the guests. Okay. So, Agre Itopi Kechana Prashnaha Santi. Vadudhatohu vachudhatohu prayogaham. Vakti ityasya vaktavyam iti bhavati. Vadati ityasya tu vaditavyam. Okay. So even though vastutaha vaktavyam ityasya iva prayogaha samanyataha drishyate, atra tu vadati ityasya prayogaha janapriyaha. So when we are using the lakaras, vadati is more common. And when we are using the the tavya pratyaya, the vaktavya is more common, but I mean it's just that. Kintu vachadhatoho vaktavyam iti rupam, vadadhatoho vaditavyam iti rupam. Durjanah pariharthavyaha vidyayalankritopi sanna manina bhushita sarpaha kimasauna bhayankaraha. Durjanah pariharthavyaha. So, evil, an evil man must be avoided. Vidyaya alankritopi san. Yadyapi saha vidvan bhavet. Panditaha bhavet. Tathapi tasya sangaha na kartavyaha. Saha pariharthavyaha. Kimartham manina bhushita sarpaha. Sarpasya phanayam manihi bhavati iti pratitihi. Manina bhushita sarpaha किम् असौ न भयङ्करः. मणिः अस्ति इति कारणेन कश्चित् सर्पेण मैत्रीं कर्तुम् इच्छति वा? नेच्छति, यतोहि तथापि सर्पः भयङ्कर एव, सः दशत्येव विषपूरित एव. एवमेव विद्वान् चेदपि दुर्जनः स्वभावः यदि उत्तमः नास्ति तर्हि तस्य सङ्गः न कर्तव्यः. तत्र दुर्जनः परिहर्तव्यः. दुर्जनः इति कर्मपदं पुल्लिङ्गे अस्ति, अतः परिहर्तव्यः इत्यपि. न केवलं लिङ्गत्रये किन्तु वचनत्रये अपि रूपाणि भवन्ति तव्यप्रत्ययान्तस्य. पठितव्यः, पठितव्यौ, पठितव्याः इति पुल्लिङ्गे, पठितव्या, पठितव्ये, पठितव्याः इति स्त्रीलिङ्गे, पठितव्यं, पठितव्ये, पठितव्यानि इति नपुंसकलिङ्गे. वचनं कर्मपदम् अनुसृत्य भवति इति तु स्पष्टमेव. अतः इदानीं तव्यप्रत्ययान्तम् उपयुज्य कर्मणि प्रयोगे परिवर्तनं, समानः अभ्यासः. अत्र वचनस्यापि अवधानं दातव्यं. लिङ्गविषये तथा वचनविषये उभयथापि अवधानं दातव्यं भवति. दोषान् त्यज इत्यस्ति. पद्मनाभन् महोदय
नमस्ते. दोषान् त्यक्तव्यान्
प्रथमाविभक्तिः.
ओ, प्रथमाविभक्तौ दोषाः त्यक्तव्याः.
दोषाः त्यक्तव्याः.
वृक्षाः छेत्तव्याः.
सम्यक्. वृक्षाः छेत्तव्याः. द ट्रीस् न छेत्तव्याः इति प्रयोगस्य तु छेत्तव्य, छिन्धि इत्यस्य छेत्तव्य इति.
बालाः द्रष्टव्याः.
बालौ पश्य.
बालौ, ओके. बालौ द्रष्टव्यौ.
बालौ द्रष्टव्यौ. सम्यक्. वेङ्कटेश्वरन् महोदय
नमस्ते.
फलानि,
फलानि बुङ्क्
फलाभुजधातु.
फलानि भोक्तव्यम्.
फलानि,
फलानि भोक्तव्यानि.
फलानि भोक्तव्यानि.
प्रश्नं पृच्छ. प्रश्नः पृच्छ.
प्रष्टव्य.
प्रश्नः प्रष्टव्यः.
प्रश्नः प्रष्टव्यः.
लेखनीम् आनय. लेखनी आनव्या. आनव्या
नयति.
लेखनी नी नेतव्यम्. लेखनी, लेखनी नेतव्या.
आनेतव्या. नेतव्या नयति, नेतव्या आनयति, आनेतव्या. लेखनी आनेतव्या. सम्यक्. धन्यवादः. श्रीधर् महोदय.
नमस्ते महोदय. देव्यौ पूजय. अत्र देव्यौ पूजयितव्यौ.
देव्यौ मयैव दोषः कृतः मयापि दोषः कृतः दोषः सः किं शुद्धं देव्यौ
पूजयितव्ये
स्त्रीलिङ्गे देव्यौ पूजयितव्ये मोमेण्ट् इट् इस् वेल् एस् यु केन् सी ऐ मीन् इवन् इफ् यु नो इट्स् वेरि कामन् मिस्टेक् बिकास् वि हियर् द औ एण्ड् वि टेन् टु पुट् द औ देव्यौ पूजयितव्ये इत्येव रूपम् वन् सेकेण्ड् ऐ विल् चेञ्ज् दिस् देव्यौ पूजयितव्ये
कूपीः कूपीः कूप्यः कूप्यः पूरयितव्याः
कूप्यः पूरयितव्याः
पुष्पाणि गणय पुष्पाणि गणयितव्यानि
पुष्पाणि गणयितव्यानि सम्यक्
एकः प्रश्नः अस्ति एक्सेल् विषये तत्र मान् इति धातु गणद्वये अस्ति वादि चुरादि तत्र ल्युट् प्रत्ययरूपम् अपि अनियर्
न विद्यते ल्युटि अनियरि भेदः न दृश्यते
तर्हि अत्र दोषः इति
दोषः अस्ति वा अस्ति चेत् किमस्ति
दशमगणे 295 पङ्क्तौ मानं मानीयम् इति अस्ति
यदि मान धातुः तर्हि अयुक्तं मा धातुश्चेत् मा धातोरेव मानं मानीयम् इति भवति मान धातुश्चेत् माननं माननीयम् इत्येव भवेत्
अत्र मान एव
सम्यक् करोमि
पदं
भवानेव परिवर्तयतु चिन्तनं
हलो श्रूयते वा
तदेव परिवर्तयतु कृपया यु केन् चेञ्ज् इट् सो वि केन् डु इट् धन्यवादः Paul?
Hariyom. Indrayani Jaya. Indrayani Jaitavyani.
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 Ji iti anit dhatu.
क्रोधं संहर संहर सो क्रोधः संहर्तव्यः
क्रोधः संहर्तव्यः
संहर्तव्यः वाच्यं निग्रहान् वाचः
वाक् शब्दः वाच् शब्दः वाक् इति
वाच्य
वाक्
वाक्
ग्रह धातुः
Gatni. So it's, isn't it vachah?
No, vak.
Oh, just vak. Okay.
Yeah, vak.
Vak, and then that's what I was thinking. Okay, vak. Nigarhanatavya.
Nigrahitavya. Grihanati is grahitavyam. So, nigrahitavya.
Nigrahitavya.
Vak nigrahitavya.
Vak nigrahitavya.
Yes, control speech. Is there taha? Krodha samhartavyaha. So anger should be again samharati is to ended or controlled. Vak nigrahitavya. Graha dhatoho itaha dirghaha bhavati ataha grahitavya iti bhavati. Okay. Atra kechana prashnaha santi. Okay. I'll take these questions at the end. Sorry, all those which are for now. Atra anyamekam subhashitam pashyamaha. Anyadekam subhashitam. Shaddoshaha purusheneha hatavya bhuti michata. Nidra tandra bhayankrodha alasyam dirghasutrata. Shaddoshaha hatavyaha. Hatavyaha ityeva tatra sandhihi asti, ataha visargaha shlokena drishyate, doshaha hatavyaha, ohat tyage, tyaktavyaha ityarthaha, shad doshaha tyaktavyaha, bhutimichyata purushena, yaha purushaha bhutim samriddhim ichyati, tena shad doshaha tyaktavyaha, kete nidra tandra bhayam krodha alasyam dirgha sutrata. So these six are the faults which will impede prosperity or becoming prosperous. Nidra, sleep. Tandra is lethargy, okay, or jagyam, being sleepy or lethargic about doing something. Bhayam, fear. Krodha, anger. Alasyam, laziness. Dirgha sutrata is thinking too much before acting. Okay, so taking a long time to decide or to act, so rather than acting quickly. So nidra tandra bhayam krodha alasyam dirgha sutrata ityete shad doshaha hatavyaha tyaktavyaha. Okay. Kena tyaktavyaha yaha purushaha bhutim ichyati bhutihi nama samriddhihi tena purushena. So as you can see, purushena doshaha hatavyaha. Purushena iti kartrupadam tritiya vibhaktau bhavati. Doshaha iti karmapadam prathama vibhaktau bhavati. Ayam karmani prayogaha. Etadapi asti lingatraye rupani santi iti drishtam. Yadi karma padam nasti tarihi napumsakalinge ekavachane eva prayogaha bhavati. Lingatrayam asti vachanatrayam api asti. Kada bhavati yada karma padam asti tada karma padam anusritya tallinge tadvachane prayogaha bhavati. Yadi tu nasti karma padam tarhi napumsakalinge ekavachane eva prayogaha. Saha akarmaka dhatuhu bhavitum arhati. Yatha pratahkale snati. Tarhi pratahkale snatavyam. Nasti karmapadam. Tarhi napumsakalingam eva bhavati. Ekavachanantam eva bhavati. Evam vegena dhavati. Vegena dhavitavyam. Sakarmaka dhatushchedapi karma padam na uchyate. So if we are not specifying the karma pada for a sakarmaka dhatu, So avivakshita karma ityachyate, where karma pada is not intended. Samyak pathati, he reads well. Tatra kim pathati iti na uchyate na vivakshitam, tarhi samyak pathitavyam ityeva. Kutra gachyasi, kutra gantavyam. Sarvada smara, sarvada smartavyam. So pathanam, gamanam, smaranam, sakarmaka kriyaha eva, kintu yada karmapadam nochyate tadana pumsakalinge. Yadi sarvada devam smara iti uchyate, tarhi sarvada devaha smartavyaha. Sarvada mataram smara, sarvada mata smartavya. Karmapadam asti chet tasya lingam anusarati, karmapadam nasti chet napumsakalingam ekavasanantam eva. Sarvada smartavyam, kutragantavyam, samyak patitavyam, ityadi prayoga. Karmapadasya abhave napumsakalinge ekavasanantam bhavati, karmapadam asti chet tasya lingam vachanam cha praapnoti. Atrapi samanaha abhyasaha uchaihi na hasanti ityasti tavya pratyayanta yuktam vakyam vaktavyam mahadevan mahadev. Na shruyate, cannot hear you. Mic samasya asti va, kimapi na shruyate. Sundara Raman mahodaya, you have to unmute yourself.
Uchaihi na hasitavyam.
Uchaihi na hasitavyam.
Okay. Na bhashante, na bhashante. Na bhashante, na bhashitavyam.
Na bhashitavyam, samme.
Shraddhaya patanti, shraddhaya pataniyam.
Pataniyam, samme. Tavya prateya.
Shraddhaya patitavyam.
Shraddhaya patitavyam. Samyak. Anybody else? Those who have not answered so far. Himanshu. Mahone.
Sapta patrebhyaha yashtavyam.
Yachati is da dhatu.
Oh, datavyam. Sapta patrebhyaha.
Satpatrebhyaha datavyam.
Kada agantavyam.
Kada agantavyam.
Kim artham tvaritavyam.
Kim artham tvaritavyam. So tvarase is to hurry, to be, you know, do something hurriedly. So why hurry ityarthe, kim artham tvaritavyam iti prayogaha. Etattu karmapadasya vishaye drishtam. Karmapadasya prayogaha prathama vibhaktau bhavati. Karmapadasya lingam vachanam anusratya tavya pratyayantasya lingam vachanam bhavati. Kartrupadasya tritiya athava shashti vibhaktihi bhavitum arhati. So the kartrupada can be used either in tritiya or in shashti. Sarvaihi kartavyam, sarvesham kartavyam. Maya bhoktavyam, mama bhoktavyam. Tvaya gantavyam, tava gantavyam. Tena smartavyam, tasya smartavyam. Okay. So, tritiya is instinctive. Sarvepi tritiya vibhaktehe upayogam kurvanti. Shashti vibhaktehe vishaye sandeha hasyat. Bhavati itteva vyakrana niyamanugunam shashti vibhakti api bhavitum arahati. Samanyatah tritiyayaha prayogaha kriyate kartripadasya. Taihi gantavyam. Yadi te ityasti tarhi taihi gantavyam tesham gantavyam. Kartripadam tritiya athava shashti vibhaktau bhavitum arhati. So the same thing we saw with Aniyar also. Lokahitam mama karaniyam. So mama karaniyam, maya karaniyam ityarthe mama karaniyam iti. Evam atrapi bhavati. Tava te iti bhavitum arhati. Tava gantavyam, te gantavyam, me kartavyam ityadi. Tava te mama me iti dvayoho rupayorapi prayogaha bhavitum arhati. Atra riktasthanam puraniyam, riktasthana dvayam asti. Ekam kartrapadasya, aparam tavyapratyayantasya. So, jagarukataya, vakyam, savadhanam rachaniyam bhavati. Kumar Shankar Mahodaya.
Good morning.
Chatrehi
samaye patashala gantavyam. Patashala gantavya.
Samyak. Chatrehi samaye patashala gantavya. Patashala strilinge ataha gantavya chatrehi. So the students must go to school on time. So samaye iti artaha chatrehi patashala gantavya.
Sarvesham sarvada satyameva vaktavyam.
Samyak. Sarvaihi athava sarvesham sarvada satyameva vaktavyam. Dhanyavadaha. So upari api chatranam gantavyam ityapi bhavitum arhati. So we can use both tritiya and shashti. Aditya.
Gurave namaha. Vayam prakshaha na chit. Asmakam prakshaha na chetavyam.
Prakshaha.
Asmakam vrikshaha na chetavyaha.
Asmakam asmabhihi vrikshaha na chetavyaha. Ubhayam yuktam.
Yushmabhihi shvaha asmad grihe bhoktavyah. Yushmabhihi shvaha asmad grihe bhoktavyah.
Vai pullinga
bhoktavyam.
Karma padam nasti. Asmad grihe bhoktavyam. Tvam ekavachanam. Ataha? Tvaya. Tvaya shvaha asmad grihe bhoktavyam. Tava shvaha asmad grihe bhoktavyam. Iti? Ubhayatha. So since there is no karma pada, bhoktavyam iti napumsakalinge eva prayogah. Dhanyavadaha. Ananta Krishnan.
Manushyehi bhumihi rakshitavya praninaha
Samyak. Manushyena bhumihi rakshitavya praninaha tratavyaha. Athava manushyasya bhumihi rakshitavya praninaha tratavyaha.
Maya mahatkattam sodhavyam.
Sodhavyam sahitavyam. Vikalpena idagamam prapnoti. Maya mahatkattam sahitavyam athava sodhavyam. Samyak. Athava mama mahatkattam sahitavyam sodhavyam. So, kartrapadasya prayogaha tritiya vibhaktau, tavya pratyayantasya prayogaha karma padasya lingam vachanam vibhaktimcha anusritya bhavati. Sarvasu vibhaktishu abhi prayogaha bhavitum arhati. Yadyapi samanyataha prathama vibhaktereva prayogaha atyantam prasiddhaha, tathapi anyasu vibhaktishu karma padasya visheshanatvena prayogaha kartum shakyate. So if we have a different action, so when the tavya, the action, tavya pratyayantaha shabdaha dhatoho bhavati, tasyaha eva kriyayaha yatra pradhanyam, yatha satyam vaktavyam, pathaha patitavyaha. So tasyaha eva kriyayaha pradhanyam asti che, tatra prathama vibhaktihi bhavati, anyaya kriyaya saha prayogaha kriyate chet. Udaharanani pashyamaha. Ashvaha arodhavyaha. So the horse must be, you must climb onto the horse. Kintu arodhavyam ashvam anaya. So bring the horse which is to be climbed. Arodhavyam ashvam anaya. Arodhavyena ashvena saha agatha. So come with the horse which must be climbed. So sarvatra arodhavyaha iti ashvasya visheshanam. So ashvam anaya. Kidrisham arodhavyam ashvam. That which fit, that which deserves to be climbed upon or that which is possible. So yaya arthaha santi te sarvepi arthaha bhavitum arhanti. So arodhavyaya ashvaya jalam dehi. So arodhavyad ashvat bhayam kimartham. Arodhavyasya ashvasya nama kim. Arodhavye ashve pritihi bhavatu. So tatta karma padam bhinnasu vibhaktishu upayujya vakyam vrachyate chet tasya visheshanatvena tavya pratyayantasya prayogaha kartum shakyaha. So everywhere it is the same case. Se pathaha. So patham likha ityasti. So patitavyam patham likha or patitavyam patham patha. Patitavyasya pathasya namakim. Okay. So kretavyasya pustakasya namakim. Kretavyam pustakam pashya ityadi. So everywhere you have the karma pada. So using the karma pada, if you can construct different sentences with different vibhaktis, you can make the tavya pratyayanta a visheshana to it. Samanya prayogetu anya kriya nasti, right? So when you just say ashvaha arodhavyaha, the horse must be climbed upon. So arohana kriya eva yatra bhavati tatra prathama vibhaktau prayogaha, yatra anya kriya bhavati tatra bhinnasu vibhaktishu prayogaha bhavati. Okay, it is possible to use it in all different vibhaktis. Samanyataha na bhavati. I mean, without a context, you will not be able to tell. So the normal usage is in prathama vibhakti. Okay. सो अनेन तव्यप्रत्ययस्य अध्ययनं समापयामः. केचन विशेषांशाः, सो विच् इस् वेरि सिमिलर् टु वाट् वि हव् सीन् फार् अनीय. सो सामान्याः अर्थाः, सो के अर्थाः बोध्यन्ते प्रत्ययेन. विधिः, विधिः नाम आज्ञा इत्यस्ति. सत्यमेव वक्तव्यम्, सो इट् इस् द ट्रूत् मस्ट् बि टोल्ड् आल्वेस्, सो आल्वेस् स्पीक् द ट्रूत् इति विधिः. कामचारः, सो कामचारः इस् एन् इन्वैट्, सो विच् यु केन् ईदर् एक्सेप्ट् आर् नाट्. विधि यु केन् नाट् ओवर् रूल् इट्, वेरस् कामचार इस् एन् इन्वैट् विच् इस् से अस्माकं गृहम् आगन्तव्यं भवता, सो यु मस्ट् कम् होम्. So it is not a vidhi, it is not an order that you have to go home, it's an invite. So you can either accept or reject. So kamacharaha, praptakalaha. So it also indicates that it is the time for something. Say guruna snatavyam. So snana samayaha eshaha iti suchana eva, natu vidhihi. It is not an order to the guru. Nor is it like an invite, okay, when you can either take bath or not. It just says that this is the time for taking bath. So, praptakalaha. Arhata, athava yogyata, ityarthe. Krashtavya yambhumihi. So, this land is fit to be plowed, or it is good, worth plowing, ityarthe. Krashtavya yambhumihi. Shakyata. So it is possible to do something. Shramena siddhihi praptavya. So success can be attained through effort. So it is the possibility of attaining siddhi is through shrama. Shramena siddhihi praptavya. So ityete arthaha yatha aniyar pratyayasya tatha tavya pratyayasya api bhavanti. So any context which uses tavya, it can be any of these meanings. So based on the context, we understand it. So it is not always an order. Okay? So there are different shades of meanings. Punascha tavya pratyaha kritya pratyayeshu anyatamaha. Sapta kritya pratyayaha santi. So tavya, aniyar, yat, nyat, kyap, kelimar iti. Teshu tavya pratyaha. So prathama varge api uktam. तव्यत् तव्य इति व्याकरणदृष्ट्या प्रत्ययद्वयमस्ति. सर्वत्र रूपाणि अथवा रूपं समानं, प्रयोगः अपि समानरीत्या एव भवति. स्वरे भेदः, सो फार् आर् प्राक्टिकल् पर्पसस् वी टेक् इट् एस् वन् प्रत्यय. सो सः कृत्यप्रत्ययेषु अन्तर्भवति. सो तव्यप्रत्ययसम्बद्धानि सूत्राणि तव्यत् तव्य अनीयरः इति प्रत्ययविधायकं सूत्रम्. सो तव्यत् तव्य अनीयर् इति प्रत्ययत्रयमपि एकेनैव सूत्रेण दीयते. कृत्यल्युटो बहुलम्, सो कृत्यप्रत्ययाः भिन्नेषु अर्थेषु भवन्ति, न केवलं कर्मार्थे भावार्थे वा. प्रैष अतिसर्ग प्राप्तकालेषु कृत्याश्च. प्रैषः नाम विधिः, अतिसर्गः नाम कामचारः, प्राप्तकालः. सो ये अर्थाः दृष्टाः तेषु अर्थेषु कृत्यप्रत्ययाः भवन्ति. लिङ् च ऊर्ध्वमौहूर्तिके इत्यस्ति तदपि. अर्हे कृत्यतृचश्च, अर्हार्थे कृत्यप्रत्ययानां प्रयोगः भवति. कृत्याश्च शकि लिङ् च इत्यस्ति, अतः शक्यार्थे कृत्यप्रत्ययानां प्रयोगः भवति. सो यू केन् सी आल् दीस् सूत्रास् कन्सर्न् कृत्यस् इन् जनरल् आन् नाट् जस्ट् तव्य. So, shaki, ling, cha, ityasti. So, we have all this, which are general sutras concerned with the tavya pratyaya. Okay. So, tavya pratyayasya vishaye smartavyaha ime vishayaha. So, tavyat, tavya iti pratyayadvayam, ubhayoho pratyayoho, rupe tavya ityeva shruyate, vidyadishu artheshu. विधिः, कामचारः, प्राप्तकालः, अर्हता, शक्यता इत्येवमर्थेषु प्रयोगः भवति अस्य प्रत्ययस्य. प्रयोगः अनीयर् प्रत्ययान्तवत् भवति. रूपाणि तुमुन् प्रत्ययान्तवत् भवन्ति. लिङ्गत्रये रूपाणि भवन्ति, अकारान्तं पुल्लिङ्गम्, అకారాంతం స్త్రీలింగం, అకారాంతం చ నపుంసకలింగం. కర్మపదస్య లింగం వచనం అనుసృత్య ప్రయోగః భవతి. సామాన్య ప్రయోగః తవ్యప్రత్యయాంతం ప్రథమా విభక్తౌ భవతి. కర్మపదం అపి ప్రథమా విభక్తౌ భవతి. కర్తృపదం తృతీయా విభక్తౌ అథవా షష్ఠీ విభక్తౌ భవతి. సో ది నార్మల్ కన్స్ట్రక్షన్. మయా పాఠః పఠితవ్యః. సర్వైః గ్రామః గంతవ్యః ఇత్యాది. యథా దృష్టం అన్యాసు విభక్తిషు అపి ప్రయోగః భవితుం అర్హతి. కర్మపదస్య విశేషణత్వేన అన్యాసు విభక్తిషు ప్రయోగః భవతి. అంతే ఏకం సుభాషితం పఠిత్వా సమాపయామః. శతం విహాయ భోక్తవ్యం. సో ఎవరి కామన్ సేయింగ్ విచ్ మై టీచర్స్ యూస్ టు యూజ్ ఇట్ ఆల్వేస్, ఎస్పెషలీ వెన్ దెర్ వాజ్ అ క్లాస్ ఎట్ లంచ్ టైమ్ అండ్ ఎవ్రీబడి వాజ్ డిస్ట్రాక్టెడ్. శతం విహాయ భోక్తవ్యం కహ అర్థ శతం విహాయ. సో ఈవెన్ ఇఫ్ దెర్ ఆర్ 100 అదర్ టాస్క్స్, సో లీవ్ ఎవ్రీథింగ్ అండ్ ఈట్. So eating is important, or having food at the right time is important. So shatam vihaya bhoktavyam iti. But that subhashita is not just that, it does not end with just that. So the rest is also more. Shatam vihaya bhoktavyam sahasram snanam acharet. Sahasram vihaya, so leaving aside 1,000 tasks, you have to take bath. Laksham vihaya datavyam. So laksham కార్యాణం లక్ష్యమపి త్యక్త్వా దాతవ్యం దానం కుర్యాత్. కోటిం త్యక్త్వా హరిం స్మరేత్. సో కోటిం త్యక్త్వా, సో కోటి కార్యాణి భవంతి చేదపి తాన్ సర్వాన్, తాని సర్వాణి కార్యాణి త్యక్త్వా హరిం స్మరేత్. భగవత్ స్మరణం కర్తవ్యం. సో భోక్తవ్యం ఇస్ ఓన్లీ ద ఫస్ట్ స్టెప్. శతం విహాయ భోక్తవ్యం సహస్రం స్నానమాచరేత్. లక్ష్యం విహాయ దాతవ్యం కోటిం త్యక్త్వా హరిం స్మరేత్. సో other tasks are there which are more important also. So anyway, tatra bhoktavyam datavyam iti tavya pratyayantasya prayogah. So that's it for today's class. So there were a few questions which I'll answer. So just before that, తుమున్ ప్రత్యయస్య విషయే సూత్రాణి నోక్తాని ఇతి బహుభిః పృష్టం. తుమున్ సంబద్ధాని పాణినీయ సూత్రాన్ని. సో దేర్ ఇస్ జస్ట్ ఎ లిస్ట్. ఐ విల్ యాడ్ దీస్ స్లైడ్స్ టు ద లాస్ట్ క్లాస్ ఆన్ తుమున్. ఓకే, సో ఐ విల్ యాడ్ దిస్ దేర్. సో ద సూత్రాస్ ఆర్ హియర్. తుమున్ నులౌ క్రియాయాం క్రియార్థాయాం సమానకర్తృకేషు తుమున్ కాలసమయ వేళాసు తుమున్ శక ధృష జ్ఞాగ్లా ఘట రభ లభ క్రమ సహర్హాస్త్యర్థేషు తుమున్ పర్యాప్తివచనే స్వలమర్థేషు. సో పంచభిః సూత్రైః తుమున్ ప్రత్యయః విధీయతే. సో పాణిని గివ్స్ ద ప్రత్యయ తుమున్ బై 5 డిఫరెంట్ సూత్రస్. సో అన్లైక్ యు హ్యావ్ ఫర్ తవ్యత్ ఇట్ ఇస్ అ సింగల్ సూత్ర తవ్యత్తవ్యనీయరః, బట్ హియర్ దర్ ఆర్ 5 డిఫరెంట్ సూత్రస్ విచ్ గివ్. సో వి సా ద డిఫరెంట్ యునో ways in which it is used. Say kala samaya velasu tumun. So shaknoti, janati, arhati ityadi bhihi yoge tumun bhavati. Paryapti vachaneshu, so nipunaha, kshamaha ityadishu bhavati ityadi. So those are the sutras for tumun itself. Krunme jantaha iti sutrena tumun nantasya avyaya samya bhavati. And then you have the idagama. సో ఇడాగమ సంబద్ధాని సూత్రాన్ని తవ్య ప్రత్యయాంతస్యాపి సమాన సూత్రాన్ని అర్ధధాతుకస్యే డ్వలాదేహే ఇతి. గ్రహోలిటి దీర్ఘః, గ్రహధాతోః దీర్ఘః భవతి. వృతో వా వృ ధాతోః ఏవం ఋకారాంతానాం ధాతూనాం దీర్ఘః వికల్పేన భవతి. తీశ సహ లుభ ఋష రిషః. ఇషు సహ లుభు ఋషు ఋషు ఇత్యేతేషాం తకారాదౌ ప్రత్యయే పరే ఇడాగమః వికల్పేన భవతి. సో దట్ ఇస్ వై వి హావ్ ఏషితవ్యం ఏష్టవ్యం సహితవ్యం సోఢవ్యం. సో రూపద్వయం. సో దే ఆర్ యాక్చువల్లీ నాట్ వేట్ ధాతుస్, But when followed by a takaradi pratyaya, they get it optionally. Ityevam. So these sutras, adha dhatuka sedvaladehe, etc., apply even for tavya. Okay. So for derivation of forms. Okay. So atra vargam samapayamaha. So there are a few questions from earlier. If you have any more, also you can ask. Okay. So there was a question, does tavyat in karmani equate to lot or vidhiling in kartari? Yes, of course, we saw that it does. So difference between vaditavyam and vaktavyam, tadapi drushtam, vadati vaditavyam, vakti vaktavyam. So there is a person who says that interested in knowing the source text of these Subhashitas. It is rather difficult to find the source of Subhashitas. Okay. So for usages from Kavyas, you can find it. So some of the Subhashitas could also be from Kavyas. But generally, Subhashitas, I mean, they are included in so many collections and they are given, you know, I mean, mouth to mouth, so that it is very difficult to trace the source. So I am not even making an attempt to trace the source of Subhashitas particularly. So, and they are called Muktakas, that is, they make sense without requiring a context. So we just use them. It is nice to have the source. I mean, for some we know, like the Niti Shatakam or whatever. Bahunam Nyatum Dushakam. I mean, it will take a lot of time to trace the source of Subhashitas. So, what is the rule which makes pracha into prashtavya? Ityasti prashtabhasya srijam rija yada rajabhraja chasham shaha ityasti shattvam bhavati. Srija srashtavyam, mrija marshtavyam, and evam yaj yashtavyam. So there are some dhatus in that sutra which give the shakara as the adesha. So anyaha prashnaha, yadi hr dhatuhu set abhavishyat tarhi rupadvayam bhavati vaiti na rkarantanam dhatunam eva rupadvayam. Taritavyam, taritavyam iti. Hr dhatuhu yadi set tarhi haritavyam iti ekameva rupam. There would not have been dirgha for hr. Hr karantanam dhatunam tatha vr dhatuhu eva dirgha vihitaha. Okay. Anya prashnaha, snanam kartavyam, pathanam kartavyam ityadi api yujyate kila iti. Sadhu eva. You can always use lyut along with the kartavya. For everything, bhojanam kartavyam. Okay. And if we are using the, you know, the karma pada, it will be in shashti. For example, ramayanasya pathanam kartavyam. Ramayanam pathaniyam, ramayanasya pathanam kartavyam. Evam gita patitavya, gitayaha pathanam kartavyam. Okay. So the karma pada will be in shashti with lyut, if we are using lyut. Okay. Any prashnaah santiva? Do you have any other questions? I'll please raise your hands only if you have a question. Okay. Yes, Venkateshwaran Mahodaya.
Madam, this Ajantanam Gunaha is he becomes he, and I become. E becomes I.
Dirga also becomes A. No, I. No, no.
Okay. Okay, okay. Thanks, ma'am.
See, in guna, both rasva and dirgha, e will become a. Evam u ubhayoho o ityeva bhavati. There is no difference in that. Because I is not guna. Adeng gunaha. Akaraha, ekaraha, okarashta gunaha. So it will be either A or O. Okay. Anne Prashnaha. Srinivas Mahode. You are muted. I think you have to unmute yourself if you have a question. No? Okay. Rao Mohole?
Yeah. Oh, what will be the next pratyaya?
I have to think.
Okay.
No, probably trich. No. Trich is the next pratyaya.
Okay.
Right. So,
thank you.
Yeah.
Is Trichya, that's also a Krutpratya?
Yes, yes. Trich, Karta, Harta, Bhokta.
Okay.
So again, I'm trying to put similar Pratyas together. It is also a set, Pratyas starting with Takara. So it will also have it. The forms will be different because it will be Rikaranta, not Akaranta. So far we have all had very easy forms because everything was Akaranta. Trich, the forms will be the same, but the Pratipadika is Rikaranta, because Trich is Rikaranta, so Subanta Rupeshu Bhedaha Bhavati.
Mm-hmm. Thank you.
Yeah. Malakondaya.
Namo Namaha. Vakti padasya dhatuhu nama kim?
Vat dhatu.
Vatchi. Vadate jikte vadda?
Vad.
Dhanyavada.
Any other questions? Prashnaha santiva? Okay, I think we'll stop here. So, Guru Reva Gatir Guru Meva Bhaje Guru Naiva Sahasminamo Gurave Na Guru Paramam Shishurasmi Guru Matirasti Guru Mamapahi Guru. Trekaha Prashnaha, how do we download all the exercises? Everything is in our portal www. It's here. So, for downloading the course materials and exercises, everything will be here. So sanskritfromhome.in. So you just log in, and in the Kridanta course you will find everything in that. In each lesson we'll have the exercise related to it. Okay. Okay. Dhanyavada.